इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। वार्ताः ह्यः लोकसभायां राज्यसभायां च विकसित भारत वृत्त्यावसर प्रत्याभूतिः तथा आजीविका मिशन ग्रामीण विकसित भारत जीरामजी 2025 इति विधेयकं स्वीकृतम्। 47.5% विकसित भारतेत्यस्य राष्ट्रिय दृष्टिकोणेन सह संरेखितस्य ग्रामीण विकासस्य संरचनायाः स्थापनायै विधेयकं प्रयुञ्जते। अस्य विधेयकस्यान्तर्गतं प्रत्येकस्मिन् ग्रामीण परिवाराय यस्य वयस्काः सदस्याः अकौशल शारीरिक कार्यं कर्तुं स्वेच्छया इच्छन्ति तेभ्यः प्रत्येकस्मिन् वित्तीय वर्षे 25,100 दिवसानां वेतन वृत्त्यावसरस्य वैधानिक प्रत्याभूतिः प्रदीयते। भारतं परिवर्तनाय परमाणु ऊर्जायाः सुस्थिर उपयोगाय तथा प्रगत्यै शान्तिं 2025 इति विधेयकं राज्यसभया सह स्वीकृतम्। अस्य विधेयकस्य उद्देश्यं देशवासिनां कल्याणाय परमाणु ऊर्जायाः आयनाइजिंग रेडिएशन इत्यनेन रूपेण विकासः अस्ति। विधेयकस्य विषये चर्चायाः प्रत्युत्तरे परमाणु ऊर्जा राज्यमंत्री डॉ जितेन्द्र सिंहः अवदत् यत् कर्करोगस्य चिकित्सायां खाद्य संरक्षणे कृषिकार्ये च परमाणु तंत्रज्ञानं महत्वपूर्णां भूमिकां निर्वहति। सः सभायै आश्वासितवान् यत् सुरक्षा विषयेषु न्यूनता नागमिष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना ओमान इथियोपिया जॉर्डन देशानां यात्राः समापिताः। ओमानदेशस्य तस्य भ्रमणावधौ उभौ राष्ट्रौ प्रधानमन्त्री नरेन्द्रमोदी तथा ओमानदेशस्य सुल्तान हैथम बिन तारिक इत्येतयोः मध्ये समग्र आर्थिक सहभागित्व सन्धौ हस्ताक्षरं कृत्वा द्वैपाक्षिक आर्थिक सम्बन्धेषु महत्वपूर्णं सोपानं चिह्नितवन्तौ। उभौ पक्षौ समुद्रीय सहयोग उच्च शिक्षा कृषि प्रियंगु कृष्यादि षट् सन्धिपत्रेषु हस्ताक्षराणि कृतानि तथा च ओमान चैम्बर ऑफ कॉमर्स एंड इंडस्ट्री तथा कॉन्फेडरेशन ऑफ इंडियन इंडस्ट्री इत्येतयोः मध्ये अपि सन्धिपत्रेषु हस्ताक्षरं जातम्। भारतोमान सम्बन्धेषु तस्य असाधारण योगदानस्य कृते तस्य दूरदर्शी नेतृत्वस्य च कृते श्रीमोदिनम् ओमान देशस्य सुल्तान इत्यनेन ऑर्डर ऑफ ओमान पुरस्कारः प्रदत्तः। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्यां पारम्परिक औषधस्य विषये द्वितीय विश्व स्वास्थ्य संघटनस्य वैश्विक शिखर सम्मेलने समापन समारोहे भागं ग्रहीष्यति। अस्मिन् अवसरे प्रधानमन्त्री समागमं सम्बोधयिष्यति तथा च आयुष क्षेत्रस्य प्रमुख डिजिटल पोर्टल माय आयुष इंटीग्रेटेड सर्विसेज पोर्टल इत्यादीनि अनेकानि ऐतिहासिकानि आयुष उपक्रमान् उद्घाटयिष्यति। सः आयुष चिह्नस्यापि अनावरणं करिष्यति यद् आयुष उत्पादानां सेवानां च गुणवत्तायाः वैश्विक मानदण्डरूपेण कल्पितमस्ति। कार्यक्रमावधौ श्रीमोदी योगस्य प्रशिक्षण विषये WHO इत्यस्य तांत्रिक प्रतिवेदनस्य तथा फ्रॉम रूट्स टू ग्लोबल रीच 11 इयर्स ऑफ ट्रांसफॉर्मेशन इन आयुष इति पुस्तकस्य विमोचनं करिष्यति। सः अश्वगंधा विषये स्मारक प्रेषचीटिकायाः विमोचनं करिष्यति यत् भारतस्य पारम्परिक औषधीय परम्परायाः वैश्विक अनुदानस्य प्रतीकः अस्ति। SIR अभियानस्यान्तर्गतं गुजरात राज्यस्य सर्वेषां विधानसभाक्षेत्राणां मतदातृसूचेः अद्य प्रकाशनं भविष्यति। मण्डल निर्वाचनाधिकारिणः पुनरावलोकन प्रक्रियायां पारदर्शितां सुनिश्चेतुं मान्यताप्राप्तानां राजनैतिकदलानां प्रतिनिधीनां कृते प्रारूपसूचीं प्रत्यार्पयिष्यन्ति। अद्य सूच्याः प्रकाशनेन अभियोगानाम् आक्षेपाणां च आवेदनस्य प्रक्रिया अधिकृततया उद्घाटितास्ति। नागरिकाः अधुना प्रारूपे स्वनामानि परीक्षितुं शक्नुवन्ति। नूतनानां नामाङ्कनानां संशोधनानां च कृते आवेदनपत्राणि पूरयितुं शक्नुवन्ति।